हिरण्यशूलं वरुणं प्रपद्ये तीर्थं वेदे हि याचितः यन्मजा भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः नमोऽग्रजे एप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽभ्यः यदपाङ्क्रूरं यदमेध्यं यदचान्दं तदपगच्छतात् अत्याचनादतीपानाद्यच्च उग्रात् प्रतिग्रहात् तन्नो वरुणो राजा पाणिनाह्यवमर्षतु सोऽहमपापो विदजो निर्मुक्तो मुक्तकिल्बिषः नागस्य पृष्ठमारुह्य गच्छेत् ब्रह्मसलोकताम् यश्चाप्सु वरुणः स पुनात्वघमर्षणः इमं मे गङ्गे जमुने सरस्वतिषुतु त्रिस्तोमगुंसच तापरुह्णिजा हसिग्निजा मरुद्वृधे वितस्तजाद्येगे शृणुह्या सुषोमजा ऋतं च सत्यं चाभिद्धा तपसोऽध्यजायत ततो रात्रिरजायत ततः समुद्रो अर्णवः समुद्रादर्णवादधि संवत्सरो अजायत अहोरात्राणि विदधद्विश्वस्य मिषतो वशी सूर्या चन्द्रमसौ धाता यथा पूर्ववकल्पयते दिवं च पृथिवीं चान्तरिक्षमथोऽसु वः यत्पृथिव्यागं रजस्वमान्तरिक्षे विदोदसी इमागस्तदापो वरुणः पुनात्मघमर्षणः पुनन्तु वसवः पुनातु वरुणः पुनात्मघमर्षणः एष भूतस्य मध्ये भुवनस्य गोप्ता एष पुण्यकृताल्लोकाने च मृत्योर्हिरण्मयम् या वा पृथिव्योर्हिरण्मजगुं सद्यश्रितगुं सुवः स नः सुवः सगुं शिशाभि आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं माञ्जुहोमि स्वाहा अकार्यकार्यवकीर्णेस्ते नो भ्रूणः गुरुकल्पगः वरुणोपामघमर्षणस्तस्मात् पापात् प्रमुच्यते रजो भूमिस्त्वमागं रोदजस्व प्रवदन्ति धीराः आक्रान्समुद्रः प्रथमे विधर्मं जनयन् प्रजा भुवनस्य राजा वृषा पवित्रे अधिसानो अव्ये बृहत्सोमो वावृधे सुभान इन्दुः जातवेदसे तु न वामसोमपदाति यतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः मग्निवर्णान् तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारजानं यो अस्मान् स्वस्तिभिदति दुर्गानि विश्वा कोश्च पृथ्वी बहुला न उर्वी भवतो काजतनजाजचयोः विश्वादिनो दुर्गः जातवेद सिन्धुन्नदावा दुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणादो अस्माकम् बोध्यभिता तनूना वृतनाजितकम् सह बाणमुग्रभग्निकम् हुवेम परवात्सधस्थात् स नः परिषदति दुर्गानि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमीर्यो अध्वरेषु तदच्चहोतानम् यश्च सत्सि स्वाञ्चाग्ने तनुवम् विप्रगस्वास्मभ्यम् च सौ भगवागजस्व गोभिर्जुष्टमजुजो निषिक्तन्तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्ठमभिसंवसा नो वैष्णवील्लोक इह वादयन्ताम् भूरन्नमद्दने पृथिव्यै स्वाहा भुवोन्नम् वाजमेन्तरिक्षागस्वाहा सुवरन्नवादित्याज दिवे स्वाहा भूर्भुवः सुवरन्नम् चन्द्रवसे दिग्भ्यस्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरन्नमो भूरग्रजे पृथिव्यै स्वाहा भुवो वाजमेन्तरिक्षागस्वाहा सुवरादित्याज दिवे स्वाहा भूर्भुवः सुवः चन्द्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरघ्नवो भूरग्नजे च पृथिव्यै च महते च स्वाहा भुवो वाजवे चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवर्महरो पाहि नो अग्र एनसे स्वाहा पाहि नो विश्ववेदसे स्वाहा यज्ञम् पाहि विभावसो स्वाहा सर्वम् पाहि शतक्रतो स्वाहा पाहि नो अग्न एकजा पाह्युतद्वितीयज पाह्योर्जन् तृतीयज पाहि गीर्भिश्च तसृभिर्वसो स्वाहा यश्चन्द्रता वृषभो विश्वरूपश्चन्दो यश्चन्दागत्या विवेच सजागम् यज्ञः पुरो वाचोपनिषदिन्द्रो ज्येष्ठ इन्द्रिचा जगशिभ्यो नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवश्चन्द ॐ नमो ब्रह्मणे धारणम् मे अस्त्वनिराकरणम् धारयिता भोजा सङ्कर्णजो श्रुतम् वाच्यो ब्रह्ममामुष्य ॐ ऋतन्तपः सत्यन्तपः श्रुतन्तपः शान्तन्तपोतमस्तपश्च मस्तपोतानन्तपो यज्ञन्तपो भूर्भुवः सुवर्ब्रह्मैतदुपास्यैतत्तपः यथा वृक्षस्य सम्पुष्पितस्य दूरात् गन्धो वा एवम् पुण्यस्य कर्मणो दूरात् गन्धो वाति यथासि धाराम् कर्ते महितामवक्त्रामे यद्युवे युवे हवा विश्वगिष्यामि कर्तम् पतिष्यामि एवमृतादात्मानम् जुगुप्से एते अणोरणीजान्महतो महीजानात्मा गुहाजान्निहितोऽस्य जन्तोः तमक्रतुम् पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् सप्त प्राणाः प्रभवन्ति तस्मात् सप्तर्षिः समिधः सप्त जिह्वाः सप्त इमे लोकागेषु चरन्ति प्राणा गुहा च जान्निहिताः सप्त सप्त अतः समुद्रा गिरजश्च सर्वे स्मात् छन्दन्ते सिन्धवः सर्वरूपाः अतश्च विश्वा ओषधजोरसा च येनैष भूतस्तिष्ठत्यन्तरात्मा ब्रह्मा देवानाम् पदवीः कवीरा वृषिर्विप्राणाम् महिषो मृगाणाम् श्येनो वृद्धा नागस्वधितिर्वना नागम् सोमः पवित्रमत्येतिरे भन्ने अजामे काल्लोहित शुक्ल कृष्णाम् भक्तीम् प्रजाम् जनजन्तीकुम् स्वरूपाम् अजोह्येको जुषमाणो नुषे तेजः येनाम् भुक्तभोगामजोऽन्यः अगुंस शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरो नसते दृषद्वरसदृतसद्यो वसतब्जागोज ऋतज अद्रिज ऋतम् बृहत् घृतम् मिमिक्षिरे घृतमस्य जो निर्घृते श्रितो घृतमुमस्य धाम अनुष्वधमावहमादजस्वस्वाहा कृतम् वृषभवक्षिहव्यम् समुद्रादोर्मिम् मधुपाकुम् उदारदुपाकुम् शुना सममृतत्वमानटे घृतस्य नाम गुह्यम् यदस्ति जिह्वा देवानामृतस्य नाभिः वयन्नाम प्रभ्रवामा घृते नास्मिन् यज्ञे धारयामानवोभिः उपब्रह्मा शृणवच्छस्य वानम् चतुःशृङ्गोपमी गौर एतत् चत्वारि शृङ्गात्रयो अस्य पादाद्वे शीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो वृषभोरो रवेति महो देवो मर्त्यागुम् आविवेश त्रिधा हितम् पणिभिर्गुह्यमानम् कविदेवासो धृतमन्वविन्दन् इन्द्र एककम् सूर्य एकम् जजानवेनादेकग्स्वधजानिष्टतक्षुः यो देवानाम् प्रथमम् पुरस्तात् विश्वाधिजो रुद्रो महर्षिः हिरण्यगर्भम् पश्यत जाजमानकम् सदो देवः शुभजा स्मृत्या संयुनत्तो यस्मात् परम् न परमस्ति किञ्चित् यस्मान्नानीयो न ज्याजोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदम् पूर्णम् पुरुषेण सर्वम् न कर्मणा न प्रजगाधनेन त्यागेनैके अमृतत्वमानशुः परेण न कन्निहितम् गुहायाम् विभ्राजते तद्यतजो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतजः शुद्धसत्त्वाः ते ब्रह्मलोके तु पराऽन्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेष्वभूतम् यत् पुण्डरीकम् पुरमध्यसग्रस्थम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य जः परः स महेश्वरः सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवं विश्वनारायणं देवमक्षरं परमं पदम् विश्वतः परमान्नित्यं विश्वनारायणगं हरिं विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पतिं विश्वस्यात्मेश्वरगं चाश्वतगं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं पराजनम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरं ब्रह्म तत्त्वं नारायणः परः नारायणपरो ध्याता ध्यानं नारायणः परः यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्तमव्ययं कविगुं समुद्रेऽन्तं विश्वशम्भुवम् पद्मकोशप्रतीकाशगं हृदयं चाप्यधोमुखम् अधोनिष्ट्यावितस्त्यान्ते नाभ्यामुपरि तिष्ठति ज्वालबालाकुलं भाति विश्वस्यायतनं महते सन्ततगं शिलाभिस्तुलं वत्याकोचसन्निभम् तस्यान्ते सुषिदगं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्तिर्विश्वतो मुखः सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः तिर्यगूर्ध्वमधशारीरश्मयस्तस्य सन्तता सन्तापयति स्वन्देहवापादतलमस्तकः तस्य मध्ये वह्निशिखा अनीयो ऊर्ध्वा व्यवस्थितः नीलतो यदमध्यस्थात् विद्युल्लेखे बभास्वरा नीवारशोकवत्तन्वीपीताभास्पत्यडोपमा तस्याशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमस्वरात् आदित्यो वा एष एतन्मण्डलं तपति तत्र तृचस्तदृचा मण्डलकं सरचाल्लोकोऽथ ज एष एतस्मिन्मण्डले चिर्दीप्यतेतानि सामानि ससाम्नाल्लोकोऽथ ज एष एतस्मिन्मण्डले चिचि पुरुषस्तानि यजोगुं चि स गजुषा मण्डलकं स यजुषाल्लोकस्यैषा त्रय्येव विद्यातपति ज एषोऽन्तरादित्ये हिरण्मजः पुरुषः आदित्यो वै तेजोजोबलयशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनं मृत्युः सत्यो मित्रो भाजुरकाशः प्राणो लोकपालः कः किङ्कं तत्सत्यमन्नमृतो जीवो विश्वः कतमस्वजम्भु ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यगुं स लोकतामाप्नोत्येता समेव देवतानागुं सायुज्यगुं सार्ष्टितागुं समानलोकतामाप्नोति च एवं वेदे उपनिषत्